कामरूपिणी विद्यारंभम करिष्यामि सिद्धिर भवतु मे सदा। पठामि संस्कृतं नित्यं वदामि संस्कृतं सदा। ध्यायामि संस्कृतं सम्यक् वंदे संस्कृतमातरम्। संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहम्। संस्कृतस्य सदा भक्तो वंदे संस्कृतमातरम्। कृते जीवन संस्कृतस्य कृते यजन् आत्मानमाहुतं मन्ये वंदे संस्कृतमातरम्। वंदे संस्कृतमातरम्। हरि ओम्। सर्वेषां नमस्कारः। भोजचम्पूरामायणस्य अद्य द्वितीयः वर्गः। प्रथमे वर्गे वयम् एकं श्लोकं गद्यभागम् एकं च अधीतवन्तः। तत्र गद्यभागः सुदीर्घः आसीत्, किञ्चित् दीर्घसमस्तपदयुतम्। तत्र संशयाः सन्ति चेत् प्रष्टुमर्हन्ति। नो चेत् अग्रे सरामः। आरम्भं कुर्मः अद्य। वयम् एतावत्पर्यन्तं किं दृष्टवन्तः? हनुमान् उत्थितवान्, तस्य उत्थान वेगात् पर्वतः चलितवान्, तादृशं चलितवान् यत् पर्वतस्थ सर्वः अपि भागः कम्पमानः। अनन्तरं तत्र सर्वत्रापि महत् महान् एव महत् परिवर्तनं जायते स्म, महान् कोलाहलः। तत्र कीदृश परिवर्तनानि? निर्झराः वेगेन पतन्ति, अनन्तरं सर्पाः सर्वे बहिर् आगच्छन्ति, सिंहाः गर्जन्ति इत्यादिकं वयं दृष्टवन्तः। हरिणाः इतस्ततः धावन्तः पर्वतस्थं यद् एतद् उत्थापयति, पर्वतभागे विद्यमानं धातुकणम् उत्थापयति, तेन सर्वं रक्तमयम् आसीत् गर्जनम्। अनन्तरं सर्पाणां बहिरागमनम्, अनन्तरं तरुणां दूरे सुदूरं गत्वा पतनं, तरुणां शाखाः सन्ति खलु, ताः शाखाः मेघं ताडयन्ति, तेन मेघजलं सर्वत्र विकीर्णं भवति। एतत् सर्वं कविः किं कृतवान्? पर्वतं मनुष्यम् इव भावयन्, प्राणिनं भावयन् तस्मिन् सर्वम् आरोपितवान्। अतः एकैकमपि यत् तत्र सञ्जातं तत्सर्वं मनुष्यस्य कीदृशपरिणामः भवति तादृशं परिणामं सः तत्र उत्प्रेक्षितवान् इत्येव। यथा निर्झराणां पतनं तस्य अश्रुपातः इव, अनन्तरं मेघानाम् इतस्ततः गमनं तस्य शिथिलकेशपाशः इव दृश्यते, अनन्तरं गजानाम् एवं बहिरागमनं तद् सर्वं पर्वतस्य शोथः इव, उच्छूनता इव। हरिणाः यद्धातुकणान् उत्क्षिपन्ति तत् पर्वतः एव रक्तमयः, रक्तः स्रवति इव इति प्रतिभानम्। अनन्तरं सिंहस्य गर्जनं पर्वतस्य चीत्कारः एव भयेन चीत्कारः परिसरगह्वरतः निःसृतसर्पाणां दृश्यं कथम् आसीत् इत्युक्ते पर्वतस्य आन्त्रमाला बहिरागता इव अनन्तरं वृक्षशाखाः यत् मेघजलम् इतस्ततः विक्षिपन्ति प्रसारयन्ति तद् कथम् आसीत् इत्युक्ते तस्य पर्वतस्य गात्रमेव स्वेदपूर्णम् इति अनन्तरं पर्वतस्य शिखरात् प्रस्तराः शिलाः पतन्ति तद् कथम् इति सः ताः शिलाः साक्षात् कीचकेषु पतन्ति वंशवृक्षेषु तत्र छिद्रम् उत्पादयन्ति तेषु छिद्रेषु पवनः यदा अन्तरे आगच्छति तदा तद् पर्वतस्य निःश्वासः उच्छ्वासः इव भाति इति कविः उत्प्रेक्षाद्वारा बहु अद्भुतचमत्कृतिम् उत्पादितवान् अस्ति अत्र अस्मिन् गद्यभागे वस्तुतः गद्यं कवीनां निकषं वदन्ति इति वाक्यं वयं श्रुतवन्तः स्याम पद्यरचनायाः अपेक्षया अपि गद्यरचनायाम् अत्यन्तं कौशलस्य अपेक्षा भवति तद् अत्र कवेः अत्र कवित्वम् अस्मिन् गद्यभागे सम्यक् निरूपितम् इदानीं वयम् अद्यतनभागं पश्यामः अद्यतनभागे श्लोकाः अधिकाः गद्यभागाः सन्ति चेदपि द्वित्रवाक्यानि एव सन्ति तृतीयं श्लोकं पश्यामः कृत्वा मारुतिलङ्घनोत्थित सर्वेषामपि पुस्तकं नास्ति चेत् अत्र टेक्स्ट् तु दर्श्यते एव तथापि पुस्तकं शीघ्रं स्वीकुर्वन्तु इति अहं प्रार्थयामि अद्यतनभागं पश्यामः अत्र किं वर्णितमस्ति इति अहं विषयं वदामि चेत् अग्रे भवन्तः यदा श्लोकं द्रक्ष्यन्ति तदा भावं स्वयमेव ग्रहीतुं प्रयत्नं कुर्वन्ति अत्र हनुमान् बहु अत्यन्तं वेगेन पर्वतम् एवं निष्पीडयन् अग्रे उत्प्लुतवान् आकाशमार्गे तदा किम् अभवत् बहवः तरवः ये उत्पाटिताः आसन् सर्वे वृक्षाः हनुमन्तम् अनुतः बहवः वृक्षाः समुद्रे पतिताः कथं पतिताः इत्युक्ते सुदूरं गत्वा सागरमध्ये पतिताः एतेन वयं कल्पनां कर्तुं शक्नुमः कियान् वेगः आसीत् तस्य प्लवने पुनः कियत् बलम् आसीत् तस्य पर्वतस्य निष्पीडने तथा यदा वृक्षाः अनुगताः ते च सागरजले क्रमशः पतिताः केचन वृक्षाः अधिकदूरं प्रयाणं कृत्वा पतितवन्तः केचन वृक्षाः पूर्वमेव पतितवन्तः किन्तु क्रमशः ते च पतिताः तद् कथं दृश्यते आरिनिधेः मध्ये काष्ठानां ततिः ततिः नाम पङ्क्तिः तत्र पदमस्ति ततिः तदेव कर्तृपदम् काष्ठानां वृक्ष काण्डानां ततिः दृश्यते तेषां वृक्षाणाम् अग्रभागः अस्ति खलु तद् समुद्रजलस्य उपरि दृश्यते अन्यत् सर्वं जलस्य अन्तः अस्ति केवलम् अग्रभागः तद् दीर्घपङ्क्तिः यत् दृश्यते तद् कथं भाति अग्रे सेतोः यद् निर्माणं भविष्यति तस्य पूर्वचित्रमिव इति कविः वर्णयति. सेतोः निर्माणार्थम् एकं ब्लूप्रिंट् इव सेतोः भाविसेतोः निर्माणाय अत्र सूत्रन्यासः कृतः. काचित् व्यवस्था, पूर्वव्यवस्था, पूर्वसज्जता कृता कथं निर्माणं कर्तव्यम् इति यत् तेषां कल्पना तदत्र दृष्टिगोचरम् अस्ति इति कविः वर्णयति. इदानीं वयं श्लोकं पश्यामः. कृत्वा मारुतिलङ्घनोत्थितरयात् तत्रानुयात्रां ततः पतिता महेन्द्रगहनक्षोणीरुहाणां ततिः मध्ये वारिनिधिप्रकाशितशिखा सेतोः कृते भाविनः सूत्रन्यासनिखातशङ्कुनिवहत् पयोधौ दधौ पदच्छेदः एवमस्ति. कृत्वा मारुतिलङ्घनोत्थितरयात् तत्र अनुयात्रां ततः पर्यायात् पतिता महेन्द्रगहनक्षोणीरुहाणां ततिः मध्ये वारिनिधि प्रकाशितशिखा सेतोः कृते भाविनः सूत्रन्यासनिखातशङ्कुनिवह भ्रान्तिं पयोधौ दधौ. दीर्घतरपदम् इत्युक्ते अत्र पदद्वयमस्ति, मारुतिलङ्घनोत्थितरयात् अनन्तरं सूत्रन्यासनिखातशङ्कुनिवह भ्रान्तिम् इति दीर्घतर पदद्वयम्. अन्यसमस्तपदानि अपि सन्ति. इदानीम् अन्वये आरम्भ आदौ क्रियापदं स्वीकुर्मः. तत्र दधौ, तत्र इत्युक्ते तस्मिन् समये इति अपि भवति. तस्मिन् समये यदा मारुतिः उल्लङ्घितवान् उत्थितवान् तदा, तस्मिन् समये अत्र क्रियापदमस्ति दधौ. दधौ इत्युक्ते अधरत्, धारणपोषणयोः. अत्र ततिः भ्रान्तिं दधौ इति अर्थः. दधौ अधरत् धृतवती. धृतवती इति स्त्रीलिङ्गप्रयोगः किमर्थम् इत्युक्ते कर्तृपदं ता दधौ, ततिः दधौ. ततिः नाम पङ्क्तिः, रो, ततिः. ततिः पङ्क्तिः भवति चेत् कैश्चित् वस्तुभिः निर्मिता एव पङ्क्तिः भवति अथवा वृक्षाणाम्. अत्र केषां ततिः? महेन्द्रगहनक्षोणीरुहाणां ततिः. महेन्द्रपर्वते उत्पन्नानां वृक्षाणाम् आवलिः ततिः. क्षोणीरुहः इत्युक्ते वृक्षः. महेन्द्रगहनक्षोणीरुहाणां ततिः पङ्क्तिः दृश्यते. कीदृशी ततिः? पर्वते वृक्षाः स्थिताः. इदानीं ते सर्वे पतिता, पतिता ततिः. वृक्षाणां पतिता, पतितानां वृक्षाणां पङ्क्तिः पतिता ततिः. कदा पतिता? ततः, तदनन्तरं. कस्य अनन्तरं? मारुतेः उत्थानात् परम् अनन्तरम्. कुत्र सा ततिः पतिता? वृक्षाणाम् आवलिः कुत्र पतिता? मध्ये वारिनिधि. मध्ये, मध्ये इति उक्तम् इति अनेन एव वयम् अवगच्छामः कियद्दूरं तैः वृक्षैः प्रयातम् इति. यदि सागरतीरे एव पतिताः चेत् वेगः तावान् न आसीत् इति अर्थः. किन्तु सागरमध्ये पतिताः इत्युक्ते तद् बलम् अत्र वयम् अवगन्तुं शक्नुमः कियान् आसीत्, कियत् बलम् आसीत्. अस्तु, सा ततिः पङ्क्तिः किं कृत्वा पतिता? अनुयात्रां कृत्वा इत्युक्ते पश्चाद् यात्रां, पृष्ठतः यात्राम् अनुगत्य इति अर्थः. कस्मात् हेतोः अनुयात्रां कृत्वा? वृक्षः किमर्थं तस्य क्षणं कृतवन्तः इत्युक्ते मारुतिलङ्घनोत्थितरयात्. रयः नाम वेगः, मारुतेः लङ्घनेन वेगात्. मारुतिः यथा लङ्घनं कृतवान् तस्मिन् समये महान् एव वेगः आसीत्, तस्मात् वेगात् एते वृक्षाः तत्र उन्मूलिताः, पृष्ठतः अनुसृताः, पतिताः च. कथं पतिताः? पर्यायात् पतिता. सा पङ्क्तिः पर्यायेण, क्रमेण, क्रमशः वृक्षाणाम् आवलिः दृश्यते. सर्वे एकस्मिन् स्थले न, क्रमेण, क्रमशः. च ततिः कथं भूता सति दधौ? प्रकाशितशिखा सति दधौ. प्रकाशितशिखा, प्रकाशितम् इत्युक्ते दृष्टिगोचरं, साक्षात् द्रष्टुं शक्नुमः. अप्रकाशितम् इत्युक्ते गूढं, द्रष्टुं न शक्नुमः. प्रकाशितशिखा सति सा पङ्क्तिः ततिः वृक्षाणाम् आवलिः तेषु तस्यां पङ्क्तौ विद्यमानवृक्ष वृक्षाणाम् अग्रभागः उपरि दृश्यते, जलस्य उपरि. प्रकाशितशिखात् सती सा ततिः कुत्र दधौ? पयोधौ. पयोधिः सागरः, पयांसि धीयन्ते अस्मिन् इति पयोधिः, समुद्रः, जलं. पयः इत्युक्ते जलं, जलधिः इत्येव अर्थः. कां दधौ? कर्मपदं किम् अत्र? किमपि एकं भ्रान्तिं ददौ, दधौ. भ्रान्तिः, मनसि कश्चन संशयः. कीदृशीं भ्रान्तिम् इत्युक्ते दधौ इत्युक्ते सूत्रन्यासनिखातशङ्कुनिवः भ्रान्तिं दधौ. तत्र एवं भ्रान्तिं जनयति तत् दृश्यं. किं दृश्यम् इत्युक्ते पतितानां वृक्षाणां पङ्क्तिः कां भ्रान्तिं मनसि जनयति? तन्नाम वृक्षाः एवं बद्धाः, परस्पर क्रमशः एकस्याम् आवल्यां बद्धाः सन्ति. तेषाम् अग्रभागः तद् जलस्य उपरि दृश्यते. तत्सर्वं कीलं, कीलम् इत्युक्ते तद् स्तम्भः इव, सेतोः निर्माणार्थं तत्र तत्र स्तम्भाः भवन्ति किल, तस्य उपरि इव एव सेतुः तिष्ठति. तद् एव अत्र शङ्कु इति पदं सूचयति. तेषां शङ्कूनां निवहः इत्युक्ते निचयः, समूहः. अतः अग्रे करिष्यमाणस्य सेतोः कृते इदानीमेव तत्र पूर्वरूपं, पूर्वस्वरूपं कृतमस्ति. सूत्रन्यासनिखातशङ्कु, तत्र सर्वं कीलितमस्ति. किमर्थं? सेतोः निर्माणाय. एकं ब्लू प्रिण्ट् इव अस्ति इति भ्रान्तिं, तादृशीं भ्रान्तिं तत् सा ततिः दधौ, सा ततिः, सा वृक्षाणां पङ्क्तिः धृतवती. कस्य कृते भ्रान्तिं? सेतोः कृते. कीदृशस्य सेतोः कृते इत्युक्ते इदानीं सा सः सेतुः न निर्मितः, भाविनः सेतोः कृते, भविष्यत्तः भविष्यन् इति शत्रुप्रत्ययः भविष्यत्काले अपि भवति. भविष्यतः सेतोः कृते, भाविनः सेतोः कृते. इदानीम् अन्वयं पठामः. तत्र मारुतिलङ्घनोत्थितरयात् अनुयात्रां कृत्वा ततः मध्ये वारिनिधि पर्यायात् पतिता महेन्द्र गहन क्षोणीरुहाणां ततिः प्रकाशित शिखा सती भाविनः सेतोः कृते पयोधौ सूत्रन्यास निखात शंकु निवह भ्रांतिम दधौ इति अन्वयः। अन्वयस्य अर्थं द्रक्ष्यामः पदशः प्रतिपदार्थः। तत्र तस्मिन् समये तस्मिन् स्थाने अपि अर्थः भवति, अत्र तस्मिन् समये। मारुतिलङ्घनोत्थितरयात् हनुमतः समुद्रप्लवनेन उत्पन्नात् वेगात्, रयः नाम वेगः, अनुयात्रां कृत्वा अनुगमनं कृत्वा। अनु इत्युक्ते बहवः अर्थाः भवन्ति, एकं तु समीपार्थे अनु, अत्र पश्चादर्थे अनुगमनं, पृष्ठतः गमनं कृत्वा। ततः तदनन्तरं महेन्द्रगहनक्षोणीरुहाणां महेन्द्रशैलस्य वृक्षाणां, क्षोणी इत्युक्ते भूमिः, क्षोण्यां रोहन्ति, भूमौ ये रोहन्ति ते वृक्षाः। जले रोहन्ति इत्युक्ते जलरुहः, सरोरुहः इति कमलस्य विषये वयं श्रुतवन्तः स्याम। तथैव क्षोणीरुहाः वृक्षाः, महेन्द्रगहनक्षोणीरुहाणां, कीदृशाः ते वृक्षाः? घनवृक्षाः, गहनक्षोणीरुहाणां। ततिः पङ्क्तिः पर्यायात् क्रमशः मध्ये वारिनिधि सागरमध्ये, अव्ययीभाव समस्तपदम्, एतद् पदं वारिनिधिः इति, मध्ये वारिनिधिः इति न भवति, मध्ये वारिनिधि सागरमध्ये। पतिता भ्रष्टा प्रकाशितशिखा सती दृष्टाग्रभागा सती, सा ततिः पङ्क्तिः अस्ति किल, तस्यां पङ्क्तौ तत्र तत्र यद् उपरि अग्रभागः जलस्य उपरि दृश्यमानः अस्ति, दृष्टाग्रभागा सती सा ततिः। भाविनः सेतोः कृते, भविष्यतः सेतोः कृते, चिरामेण करिष्यमाणस्य सेतोः कृते। पयोधौ समुद्रे सूत्रन्यासनिखातशङ्कुनिवह भ्रान्तिम् एन विन्यस्ता, विन्यस्ता इत्युक्ते व्यवस्थिता, अरेञ्ज्ड्, अरेड् इति अर्थः, सूत्रबन्धनेन विन्यस्ता। रोपिता, रोपिता इत्युक्ते फिक्स्ड्, कीलिता, कीलमयी पङ्क्तिः इव भ्रमं दधौ धृतवती। अत्र सूत्रन्यासनिखातशङ्कुनिवह भ्रान्तिं दधौ इति अत्र पदे एव अस्माभिः किञ्चित् तस्य पद प्रतिपदम् अवगच्छामः चेत् तस्य भावम् अवगन्तुं शक्नुमः। सूत्रन्यासनिखात, निखात इत्युक्ते खननं, खननं कृत्वा इदानीम् एकदीर्घा सेतु, फ्लैओवर् निर्माणं कुर्वन्ति इति पश्यामः वयं महानगरेषु अपि। तत्र किं भवति, उपरि सेतुः भवति, अधः मार्गः भवति, तर्हि सेतुः कथं तिष्ठेत्? मध्ये मध्ये स्तम्भाः दृश्यन्ते खलु, ते च स्तम्भाः एव सेतुं सम्यक् धारयन्ति। ते स्तम्भाः एव अत्र शङ्कु इति पदेन सूचितं, कल्पनानिमित्तम् अहं वदामि, तत्र शङ्कु इत्युक्ते तत्र स्तम्भः इव। निखात इत्युक्ते तेषां खननं, खननं कृत्वा भूमौ तत् सम्यक् आरोपयन्ति किल, तदेव निखात इति पदम्, आरोपणं, फिक्सिङ्ग्। तेषां कनेक्टिङ्ग् पायिण्ट् अस्ति किल, तदेव सूत्रेण, समुद्रजले सूत्रेण, सूत्रेण सर्वं कनेक्टेड् भवति। तत्र तत्र ये स्तम्भाः सन्ति, ते सर्वे अपि स्तम्भाः, सर्वे सर्वमपि तद् कीलं सूत्रेण सम्बद्धा, आबद्धा भवति। तर्हि सूत्रन्यासनिखातशङ्कुनिवह भ्रान्तिं, निवह इत्युक्ते समूहः, तादृशीं भ्रान्तिं धृत्वा सा पङ्क्तिः वृक्षाणां पतितानां वृक्षाणां पंक्तिः सागरमध्ये शोभते इति सामान्य अर्थः। अत्र व्याकरणविषयाः केचन सन्ति, तद् पश्यामः। मारुतिलङ्घनोत्थितरयात्, मारुतेः लङ्घनं, मारुतिलङ्घनं, मारुतिलङ्घनेन उत्थितः, मारुतिलङ्घनोत्थितः, मारुतिलङ्घनोत्थितः च असौ रयः, मारुतिलङ्घनोत्थितरयः तस्मात्। मध्ये वारिनिधि, अव्ययीभावसमासः, वारीणां निधिः वारिनिधिः, वारिनिधिः ते मध्ये, मध्ये वारिनिधि, गङ्गायाः मध्ये, मध्ये गङ्गा, गङ्गम् इति भवति, नपुंसकलिङ्गान्तं पदं भवति। समुद्रस्य मध्ये, मध्ये समुद्रम् इति एव अव्ययीभावः भवति। अतः अत्र मध्ये वारिनिधि इति, यथाशक्ति इव स्त्रीलिङ्ग, स्त्रीलिङ्गः वा पुल्लिङ्गान्तशब्दः च अत्र नपुंसकलिङ्गरूपं प्राप्नोति अव्ययीभावसमासान्ते। महेन्द्रगहनक्षोणीरुहाणां रोहन्ति इति क्षोणीरुहाः, रोहन्ति इत्युक्ते वर्धन्ते, भूमौ वर्धन्ते, गहनाः च ते क्षोणीरुहाः, गहनक्षोणीरुहाः। महेन्द्रस्य गहनक्षोणीरुहाः महेन्द्रपर्वतस्य तेषां क्षोणीरुहाणां। प्रकाशितशिखा, शिखा इत्युक्ते उपरितनभागः किल, प्रकाशिताः शिखाः अग्रभागाः यस्याः सा, यस्याः इत्युक्ते यस्याः तते, ततेः पङ्क्त्याः इति अर्थः। अग्रिम दीर्घतरसमस्तपदस्य विग्रहवाक्यम् अहम् अग्रे वक्ष्यामि, ममापि तत्र संशयः अस्ति, यदि भवन्तः जानन्ति चेदपि कर्तुं प्रयत्नं कुर्वन्तु, अग्रे वदिष्यामि खाता इति। सकृत् श्लोकं पठित्वा अग्रे गच्छामः। मन्दम् अहं पठामि, मया सह मिलित्वा भवन्तः अपि पठन्तु।
भगिनी,
श्लोके दोषः अस्ति, सत्यं, तद् सम्यक् करणीयं, क्षोणीरुहाणां नत्वं भवति। कृत्वा मारुतिलङ्घनोत्थितरयात् तत्रानुयात्रां ततः पर्यायात् पतिता महेन्द्रगहनक्षोणीरुहाणां ततिः मध्ये वारिनिधिप्रकाशितशिखा सेतोः कृते भाविनः सूत्रन्यासनिखातशङ्कुनिवह भ्रान्तिं पयोधौ दधौ। अग्रिमं तृतीयं श्लोकं द्रक्ष्यामः। अत्र श्लोके किं वर्णितमस्ति इत्युक्ते तस्य उपरि आगमनम् उक्तमस्ति। मैनाकपर्वतः सागरस्य अन्तः तिष्ठति, किन्तु इदानीं सागरः मैनाकपर्वतं प्रेरयति, समुद्रदेवः, भवान् उपरि गच्छतु, भवतः शिखरे आञ्जनेयः विश्रान्तिं स्वीकरोतु इति तस्य इच्छा। अतः सागरेण प्रेरितः सः मैनाकः उपरि उद्गच्छति। पक्षाभिघातरयरेचितवीचिमालात् पाथो निधेः पवननन्दनविश्रमाय
ततो निधे पवननन्दन विश्रमाय
तुङ्गशृङ्गकुलकीलितनाकलोको
उत्तुङ्गशृङ्गकुलकीलितनाकलोको
मैनाकभूभृत् उदजृम्भत सम्भ्रमेण
मैनाकभूभृत् उदजृम्भत सम्भ्रमेण
पदच्छेदं पश्यामः पक्षाभिघातरयरेचितवीचिमालात् पाथोनिधेः पवननन्दनविश्रमाय उत्तुङ्गशृङ्गकुलकीलितनाकलोकः मैनाकभूभृत् उदजृम्भत सम्भ्रमेण. अत्र क्रियापदम् उदजृम्भत इति अस्ति. उदजृम्भत इति उत्थितः इति अपि सामान्यार्थः. यदा प्रातः वयम् उत्तिष्ठामः किञ्चित् हस्तपादं प्रसारयामः किल, तस्यापि जृम्भणम् इति नाम अर्थः. उदजृम्भत स्वस्य अवयवं सः तनोति, एक्स्पाण्ड् करोति इति अर्थः उदजृम्भत. अवयवं सर्वं सङ्कुच्य सः समुद्रस्य अधः तिष्ठति मैनाकः. इदानीं बहिरागतः शिखरम् उपरि उदजृम्भत. कः उदजृम्भत? अत्र किं पदमस्ति? कर्तृपदं पर्वतः. मैनाकभूभृत् भुवं बिभर्ति इति भूभृत् मैनाकपर्वतः. भूधरः क्ष्माभृत् इति प्रथमे एव गद्यभागे दृष्टवन्तः. मैनाकभूभृत् कीदृशः मैनाकभूभृत्? शृङ्गकुलकीलितनाकलोकः मैनाकभूभृत्. तस्य शिखराणि बहु उन्नतानि, अत्यन्तम् उन्नतानि शिखराणि. तानि शिखराणि स्वर्गं स्पृशन्ति. शृङ्गकुलकीलित स्वर्गपर्यन्तं व्याप्तानि शिखराणि यस्य सः शृङ्गकुलकीलित नाकलोकः मैनाकभूभृत्. सः इदानीं कुतः उदजृम्भत्? कस्मात् स्थानात्? पाथोनिधेः इत्युक्ते जलनिधेः, सागरात् इति अर्थः. पाथोनिधेः, पाथस् इत्युक्ते जलम्, पाथसां निधिः, जलानां निधिः, जलनिधिः पर्व सागरः. पाथोनिधेः उदजृम्भत. कीदृशात् पाथोनिधेः? कीदृशात् सागरात्? पक्षाभिघातरयरेचितवीचिमालात् पाथोनिधेः. यदा सः उपरि आगच्छति तदा तस्य मैनाकपर्वतस्य पक्षौ स्तः. पक्षं सः पक्षद्वयं चालयति. तस्य चालनेन उपरि आगच्छति. यदा कश्चन तरणं करोति हस्तपादं चालयति किल, तेनैव सः उपरि आगच्छति अथवा अग्रे तरति. तथा एषः उपरि आगन्तुं पक्षाभ्यां तद् जलं दूरं क्षिपति. तेन किं भवति? तेन रेचित, रेचित इत्युक्ते दूरे क्षिप्त. वीचिमालाः, तरङ्गमालाः, सागरस्य तरङ्गमालाः सुदूरं प्रक्षिप्ताः. केन प्रक्षिप्ताः? तस्य पक्षयोः ताडनेन, ताडनवेगेन. यस्य सागरस्य तरङ्गमालाः प्रक्षिप्ताः तादृशसागरः पक्षाभिघातरयरेचित वीचिमालः सागरः. अतः एव अत्र पुल्लिङ्गशब्दः, बहुव्रीहिसमासः एतस्य विशेषणम् अस्ति. किमर्थम् उदजृम्भत? किमर्थं तथा सः उपरि आगतवान्? सामान्यतया अन्तः एव गुप्तः तिष्ठति सः. इदानीं किं प्रयोजनम् अस्ति तस्य बहिरागमनस्य? पवननन्दनविश्रमाय उदजृम्भत. अस्तु, कथम् उदजृम्भत? कथं सः उत्थितवान्? సంభ్రమేణ వేగేన సహసా ఉత్థితవాన్. కార్యతత్పర సన్ ఇతి అర్థః అత్ర. అన్వయః ఉత్తుంగ శృంగకుల కీలిత నాకలోకః మైనాక భూభృత్ పక్షాభిఘాత రయరేచిత వీచిమాలాత్ పాథో నిధేహే పవననందన విశ్రమాయ సంభ్రమేణ ఉదజృంభత. అత్ర మైనాక భూభృత్ ఏవ కర్తృపదం. మైనాక భూభృత్ ఉదజృంభత ఇత్యస్య విశేషణమస్తి ఉత్తుంగ శృంగకుల కీలిత నాకలోకః. కుతః ఆగతః పాథో నిధేహే సముద్రాత్. పంచమీ విభక్త్యాం అస్తి పాథో నిధేహే. తస్య విశేషణపదం కిం? పక్షాభిఘాత రయరేచిత వీచిమాలాత్ పాథో నిధేహే పవననందన విశ్రమాయ సంభ్రమేణ ఉదజృంభత. అన్వయార్థం పశ్యామః. ఉత్తుంగ శృంగకుల కీలిత నాకలోకః. ఉత్తుంగ ఇత్యుక్తే ఉన్నత అత్యుచ్ఛ్రిత. ఉత్తుంగ శృంగకుల శిఖరాణాం శ్రేణి, శిఖరాణాం సమూహః. తైః కీలిత నాకలోకః వ్యాప్త స్వర్గలోకః ఇత్యుక్తే స్వర్గస్పృక్ అస్తి తస్య శృంగం ఇతి అర్థః. గగనచుంబి ఇతి వదామః. స్వర్గపర్యంతం హిమాలయః. ఏక అస్తి కిల నగాధిరాజః, నాకస్పర్ధి నగాధిరాజః ఇతి కశ్చన పాఠః అస్తి ఏకత్ర. నాకస్పర్ధి ఇత్యుక్తే స్వర్గేణ స్పర్ధతే సహ ఔన్నత్యే ఇతి అర్థః. తథా మైనాక పర్వతః అపి యదా ఆసిత్ భూధరః పూర్వం తదా తస్య శృంగం స్వర్గం స్వర్గపర్యంతం తస్య శృంగం వ్యాప్నోతి శిఖరం వ్యాప్నోతి. తాదృశ ఉన్నత శిఖరవాన్ సహ మైనాక భూభృత్. మైనాక నామకః పర్వతః, భూభృత్ నామ పర్వతః. పక్షాభిఘాత రయరేచిత వీచిమాలాత్ పాథో నిధేహే. పక్ష పర్వతస్య పక్షౌ స్తః. కథం? పక్షీణామేవ కిల పక్షౌ అస్య అస్తి ఇతి పక్షీ. పర్వతస్య కథం పక్షౌ స్తః ఇత్యుక్తే పూర్వస్మిన్ కాలే పర్వతః పక్షవంతః ఆసన్. తే ఇతస్తతః దయంతే స్మ ఇతి పురాణేషు కథాః శ్రూయంతే. తర్హి అదః విద్యమానాః అన్యే చ గంధర్వాః దేవాః కిన్నరాః ఋషయః జనాః ప్రాణినః సర్వే భీతాః. ఏషః పర్వతః పతతి చేత్ కిం భవతి ఇతి. అతః తేషాం పతన భయస్య ఆశంకయా తే సర్వే భీతాః. అతః కుపితః ఇంద్రః కిం కృతవాన్? పర్వతానాం పక్షాణాం ఛేదనం కృతవాన్. ఏవం సహ ఏకేకశః పర్వతానాం పక్షాణాం ఛేదనం కుర్వన్ ఆసీత్. తదా మైనాక పర్వతః వాయుదేవేన రక్షితః సముద్రే శరణం గతః. సముద్రే సహ ఆశ్రయం ప్రాప్తవాన్. అతః తస్య పక్షౌ రక్షితౌ ఇంద్రస్య ప్రహారాత్ రక్షితౌ. అతః ఇదానీమపి తస్య పక్షౌ సురక్షితౌ స్తః. పక్షాభ్యాం తాభ్యాం పక్షాభ్యాం సహ అభిఘాతః భవతి. అభిఘాతః ఇత్యుక్తే ప్రహారః, జలస్య ప్రహారం కరోతి ఉపరి ఆగంతుం. తస్య వేగాత్ రయాత్ వేగాత్ రేచిత వీచిమాలాః. రేచిత ఇత్యుక్తే ప్రక్షిప్త, దూరే దూరే క్షిప్త. కిం క్షిప్తం భవతి? అక్షిప్తాః భవంతి సముద్రస్య తరంగమాలాః. మాలా ఇత్యుక్తే పునః పునః తరంగాః ఉత్పద్యంతే. ఏకః తరంగః ఉత్పద్యతే ఝటిత్యేవ అపరః ఉత్పద్యతే. అతః వీచిమాలా తరంగమాలాః సర్వదా ప్రక్షిప్తాః అభవత్. తేన కిం అభవత్? తాదృశాత్ పాథో నిధేః. పక్షాభిఘాత రయరేచిత వీచిమాలాత్ పాథో నిధేః. త तादृशसमुद्रात् पवननन्दनविश्रमाय पवनपुत्रस्य मारुतये विश्रामप्रदानाय विश्रामाय सम्भ्रमेण वेगेन उदजृम्भत उदतिष्ठत्। अत्र कविना सम्भ्रमेण इति पदस्य सुन्दरप्रयोगः कृतः। सम्भ्रमः इति पदस्य अर्थद्वय बहवः अर्थाः। अत्र वेगेन इति एकः अर्थः, सम्भ्रमः इति वेगः। अन्य अर्थः अतिथिसत्कारः। वयं भर्तृहरिश्लोके पठितवन्तः स्याम, छन्नं गृहमुपगते सम्भ्रमविधिः। यः गृहमागच्छति तस्मै अतिथिसत्कारः तं प्रति दर्शनीयः, करणीयः तस्य अतिथिसत्कारः। तत्र सम्भ्रमः इत्युक्ते अतिथिसत्कारः। तस्य कृते किं करणीयम् इति किञ्चित् वेगः दर्श्यते चेदेव अतिथिः प्रसन्नः भवति। नो चेत् शिथिलः यः आतिथ्यं करोति, गृहस्थः उपविशति, तर्हि अतिथिः सङ्कोचम् अनुभवति, तस्य खेदः भवति, अत्र आगमने मम दोषः वा, न आगन्तव्यमासीत् वा इति चिन्तयति। किञ्चित् वेगेन उत्थाय तस्य स्वागतीकरणं करोति, अनन्तरं तस्मै जलं ददाति, किं स्वीकरोति इति पृच्छति, तस्य कुशलं पृच्छति, किञ्चित् इतस्ततः वेगेन अटित्वा चलित्वा तं परितः गत्वा तस्य शुश्रूषां करोति चेत् अतिथिः सत्कृतः, सन्तुष्टः, तृप्तश्च भवति। अतिथिसत्कारं कर्तुम्, आतिथ्यं कर्तुं सम्भ्रमेण वेगेनापि, अतिथिसत्काराय तत्परः सन्नपि स्वयमपि सुन्दरतया अत्र प्रदर्श्यते। उदतिष्ठत्, उत्थितवान्। अतः सामान्य अर्थः कः? स्वर्गपर्यन्तं यस्य शिखराणां गतिः, व्याप्तिः, तादृशः मैनाकपर्वतः सम्प्रति इदानीं अन्तः गूढः वर्तते, निगूढः। हनुमन्तं सेवितुम् उत्सुकः सः, तस्मै विश्रान्तिं प्रदातुं। हनुमते विश्रान्तिं दातुम् आत्मानं व्यतनोत्, उदजृम्भत इति अर्थः। तस्य शिखरकुलं समुद्रजलस्य उपरि आगतम्। यदा सः उपरि उत्थितः तस्य शृङ्गाणि, शिखराणि दृश्यन्ते स्म। तस्मिन् उपरि आगच्छति सति तत्पक्षयोः वेगात् समुद्रतरङ्गाः प्रक्षिप्ताः भवन्ति। यदा सः उपरि आगच्छति सः जलताडनं न करोति। सागरः तस्य आश्रयदाता, सः तस्य ताडनं न करोति, किन्तु उपरि आगन्तुं तस्य पक्षौ चलतः वेगेन। तेन वेगेन समुद्रतरङ्गाः दूरे प्रक्षिप्ताः भवन्ति इति अर्थः। अत्र व्याकरणविषयः उत्तुङ्गशृङ्गकुलकीलितनाकलोकः। शृङ्गाणां कुलं शृङ्गकुलम्, उत्तुङ्गं शृङ्गकुलम्, उत्तुङ्गशृङ्गकुलं, नाकः इति लोकः, नाकः नाम स्वर्गः। उत्तुङ्गशृङ्गकुलेन कीलितः नाकलोकः येन सः, उत्तुङ्गशृङ्गकुलकीलितनाकलोकः। मैनाकभूभृत्, भुवं बिभर्ति इति भूभृत्, मैनाकः इति भूभृत्, मैनाकभूभृत्। अन्यपदानामपि तथैव समस्तपदानि, विग्रहवाक्यानि च टिप्पण्यां दर्श्यन्ते, अतः अहं बहु विस्तरेण न वदामि। अग्रे गच्छामः। अग्रे गद्यभागः अस्ति, वाक्यम्। तत्र यात्रा प्रत्यूहः प्रत्युद्भूतः इति। वक्षसा तमधः पातयित्वा प्रयान्तम् एनम्। ప్రయాంతం ఏనం సాన్త్వయన్ హిరణ్యనాభో బభాషే తత్ర యాత్రా ప్రత్యూహః ప్రత్యుద్భూతః ఇతి వక్షసా తం అధః పాతయిత్వా ప్రయాంతం ఏనం సాంత్వయన్ హిరణ్యనాభః బభాషే. సరళతరం వాక్యం, ఏకమేవ పదం కించిత్ అపరిచితమివ స్యాత్. ప్రత్యూహః ఇత్యుక్తే విఘ్నః. తత్ర యాత్రా ప్రత్యూహః ప్రత్యుద్భూతః ఇతి, యాత్రాయాం విఘ్నః ఉత్పన్నః ప్రత్యుద్భూతః ఉత్పన్నః ఇతి. వక్షసా స్వవక్షస్థలేన తం, తం ఇత్యుక్తే అత్ర మైనాకపర్వతం, అధః పాతయిత్వా ప్రయాంతం అగ్రే గతం, ఏనం సాంత్వయన్ ఏనం హనుమంతం సాంత్వయన్ సాంత్వన వచాంసి కథయన్ సాంత్వయన్ హిరణ్యనాభో బభాషే, హిరణ్యనాభః భాషితవాన్ తం ప్రతి వచనాన్ని ఉక్తవాన్, తస్య కోపం అపనేతుం వచనాన్ని ఉక్తవాన్ ఇది అర్థ. ఆరుతిహి ఏషః విఘ్నం ఉత్పాదయతి ఇది చింతితవాన్, అతః తస్య కోపం అపనేతుం పరిహర్తుం వచనాన్ని ఉక్తవాన్, అతః సాంత్వయన్ సాంత్వయతి. కిం వదతి మైనాక ఊబృత్? సాగరేణ
కృతజ్ఞేన
ప్రేరితోస్మ్యద్య సౌమ్య విశ్రమ్య గమ్యతాం.
సౌమ్య విశ్రమ్య గమ్యతాం,
అత్ర అనుష్టుప్ ఛందస సరళ శ్లోకః పదచ్ఛేదః. సాగరేణ కృతజ్ఞేన తవ అధ్వ శ్రాంతి శాంతయే మారుతే ప్రేరితః అస్మి అద్య సౌమ్య విశ్రమ్య గమ్యతాం. ఆకాంక్షాయాం యది క్రియాపదం తు ఆదౌ స్వీక్రియతే, యది సంబోధనపదం అస్తి తద్ స్వీకుర్మః. అత్ర పదద్వయం అస్తి, మారుతే ఇది ఏకం, సౌమ్య ఇది ఏకం. మారుతే హే మారుతే, అహం అస్మి, అస్మి ఇది క్రియాపదం. కః అహం, కీదృశః అహం, ప్రేరితః అహం, కదా ప్రేరితః, అద్య ప్రేరితః, అద్య ఇత్యుక్తే సంప్రతి ఇదానీ. కీదృశః అహం ప్రేరితః, కదా ప్రేరితః, అద్య ఇదానీ. కిమర్థం ప్రేరితః? అధ్వశ్రాంతి శాంతయే. అధ్వ ఇత్యుక్తే అధ్వా, డిస్టెన్స్ ఇది వదామః, మార్గ దూరం. ఏక స్థానతః అన్య స్థానం యద్ గచ్చతి తద్ డిస్టెన్స్. అధ్వశ్రాంతి శాంతయే, యాత్రా యాత్రాయాః యాత్రాయాం శ్రాంతిః భవతి, శ్రమః భవతి, తస్య శాంతయే ఉపశమనాయ. కస్య అధ్వశ్రాంతి శాంతయే? మా తవ, హే మారుతే తవ, భవతః. కేన ప్రేరితః అస్మి? సాగరేణ. కీదృశేన సాగరేణ? కృతజ్ఞేన సాగరేణ ప్రేరితః అస్మి. హే సౌమ్య, గమ్యతాం క్రియాపదం కర్మణి వాక్యం. గమ్యతాం, కేన గమ్యతాం? త్వయా. కిం కృత్వా గమ్యతాం? గమ్యతాం, విశ్రాంతిం స్వీకృత్య గచ్చతు ఇది అర్థః. అన్వయః, మారుతే అద్య తవ అధ్వశ్రాంతి శాంతయే కృతజ్ఞేన సాగరేణ ప్రేరితః అస్మి, సౌమ్య విశ్రమ్య గమ్యతాం ఇది వదతి. హే మారుతే, हे पवनपुत्र अद्य सम्प्रति तव भवतः अध्वश्रांति शांतये मार्गक्रमण श्रम श्रमस्य दूरीकरणाय अपनयनाय कृतज्ञेन सागरेण पूर्वं कृतम् उपकारं स्मरता समुद्रेण स्मरति. वयं सर्वे अपि गङ्गावतरणकथां जानीमः. गङ्गावतरणात् पूर्वं सगरमहाराजः इति इक्ष्वाकुले जातः चक्रवर्ती, सः तस्य षष्टिसहस्रं पुत्राः आसन्. अश्वमेधयागस्य अश्वः लुप्तः न दृश्यते स्म इति सः स्वपुत्रान् सर्वत्र प्रेषितवान्. ते पाताललोक प्रति गन्तुं भूम्यां खननं यदा कृतवन्तः तदा सागरः जातः. सगरपुत्रैः एतद् कृतम् इति कारणेन सागरः इति समुद्रस्य नामकरणम्. अतः सः कृतज्ञः अस्ति, इक्ष्वाकुकुलं प्रति कृतज्ञः अस्ति. तस्य कुलस्य वंशजः रामः अस्ति, तस्य साहाय्यम् आचरितुम् इच्छति इति अर्थः. ये कृतज्ञेन इति एकपदे कथा एव निहिता अस्ति. पूर्वं कृतम् उपकारं स्मरता समुद्रेण प्रेरितः अस्मि, प्रचोदितः अस्मि. हे सौम्य, हे वत्स, विश्रम्य, विश्रान्तिं स्वीकृत्य गम्यताम्. भवान् विश्रान्तिं स्वीकृत्य गच्छतु, मम शिखरे किञ्चित् कालं तिष्ठ इति वदति. अग्रिमं पश्यामः. अहं परित्रातः.
पित्राहं परित्रातः.
पूर्वं पर्वतभेदिनः.
पूर्वं पर्वतभेदिनः.
तस्मान्नास्मि विपक्षोद्य.
तस्मान्नास्मि विपक्षोद्य.
अपक्ष इति मां भज.
अपक्ष इति मां भज.
अत्र पदच्छेदः त्वत्पित्रा, अहं परित्रातः, पूर्वं पर्वतभेदिनः, तस्मात् न अस्मि, विपक्षः अद्य, सपक्षः इति मां भज. सः मैनाकः विघ्नम् उत्पादयितुम् उत्थितः इति मारुतेः मनसि शङ्का, संशयः. अतः तं संशयम् अपहर्तुं सः सान्त्वयन् वचांसि उक्तवान् इति वयं पूर्वं दृष्टवन्तः किल. किम् उक्तवान्? सागरेण प्रेरितः अस्मि, अतः अहम् उत्थितः. पुनः मम तव च सम्बन्धः अस्ति इति मैनाकः आत्मानमपि कृतज्ञं सूचयति. कं प्रति? मारुतिं प्रति, सागरं प्रति इति वदति. कथं कृतज्ञः इत्युक्ते, यदा आरम्भेत् इन्द्रस्य प्रहारेण सर्वे पर्वताः पक्षविहीनाः जाताः, तेषां पक्षाः कर्तिताः, किन्तु वायुना एषः मैनाकभूभृत् सागरे सागरं प्रति प्राप्तवान्. सागरे तस्य रक्षणम् अद्यावधि भवति. तद् सः वर्णयति. इदानीम् आकाङ्क्षा अस्ति, परित्रातः अभवम्, अहं रक्षितः अभवम्. कः परित्रातः? अहं परित्रातः. केन परित्रातः? त्वत्पित्रा, तव पित्रा, तव मारुति, मारुतिः इति अत्र अर्थः. मारुतेः पिता मरुत् पर्व पवनः. त्वत्पित्रा पवनदेवेन, वायुदेवेन अहं परित्रातः. कस्मात्? कुतः रक्षणं? पर्वतभेदिनः, पर्वतं भिनत्ति, कर्तयति इति पर्वतभेदी इन्द्रः. अत्र पञ्चमी प्रयोगः, पर्वतभेदिनः परित्रातः. कदा परित्रातः? पूर्वं, पुरा. तस्मात् अत्र हेतुः, तस्मात् हेतोः भज आश्रय मयि तिष्ठ, अतः भीतिः मास्तु, अन्यथा माम् मा चिन्तयतु, अहं तव मित्रमेव, आश्रय भज, त्वं त्वं भज, कं भज, मां भज, मयि विश्रान्तिं स्वीकुरु, माम् आश्रय इति अर्थः। कदा आश्रय? अद्य, इदानीम्, इदानीम् आश्रय। किं कुर्वन्? इति भावयन्, इति पदं किं सूचयति इति, एवं चिन्तयन्। सपक्षः अस्मि, विपक्षः नास्मि इति भावयन्। किं मनसि चिन्तनीयं भवता? अहम् अत्य अत्र कविना बहु सुन्दरश्लेषप्रयोगः कृतः। पक्षः इति सैड् इति वदामः, सपक्षः अस्मि, अहम् आवां समानपक्षे एव स्वः, विपरीतपक्षयोः न स्वः, ओपोनेण्ट्स् न स्वः आवाम्। पुनः सपक्ष विपक्ष इति पदं पक्षसहितं पक्षरहितम् इति अपि सूचयति। विपक्षः पक्षविहीनः, सपक्षः पक्षसहितः, अतः विपक्षः नः न, अहं सपक्षः अस्मि इति भावयन्, इति चिन्तयन्, मां भज, मम शृङ्गे विश्रान्तिं स्वीकुरु। प्रयोगः पूर्वम् अहं पर्वतभेदिनः त्वत्पित्रा परित्रातः रक्षितः, तस्मात् विपक्षः न अस्मि, सपक्षः अस्मि इति भावयन् मां भज। अन्वयार्थः, पूर्वं पुरा अहं मैनाकः, इन्द्रात् त्वत्पित्रा तव जनकेन वायुदेवेन हनुमतः पित्रा परित्रातः आसम्, रक्षितः आसम्, अतः विपक्षः न अस्मि, विरोधी नास्मि, अनन्तरं पक्षविहीनः अपि नास्मि, अतः ममापि त्वां प्रति, तव कुलं प्रति कृतज्ञता अस्ति। विपक्षः नास्मि इत्युक्ते विपरीतपक्षे नास्मि अहं, विरोधी नास्मि, पक्षविहीनः च नास्मि, सपक्षः अस्मि, मित्रमस्मि, तव पक्षवान् च अस्मि, समानौ समानपक्षवान् अस्मि, तस्मिन्नेव पक्षे अहम् इति मां भावयन्, मां भज, माम् आश्रय। इति सामान्यार्थः। इतोपि एतद् एकं वाक्यम् एकं श्लोकं च पठित्वा वयं समापयामः। एवं प्रार्थ्यमानम् एनम् कार्यकृत्या गते सति हनुमति, एवं प्रार्थ्यमानं येनं सम्मान्य, हनुमान् अवगतवान्, आञ्जनेयः अवगतवान् सः कीदृशः, मैत्रीम् आचरितुमेव उत्थितवान् इति दृष्ट्वा तं सम्मान्य, तमादृत्य, तस्य आदरं कृत्वा हनुमति गते सति, हनुमान् यदा अग्रे गतवान् तदा किम् अभवत् इति अग्रे वर्णितम्। एवं प्रार्थ्यमानं एनं सम्मान्य कार्यगत्या गते सति हनुमति। अत्र भावार्थः कः इत्युक्ते, सौम्य विश्रम्य गम्यताम् इति उक्तवान् खलु मैनाकः, इति प्रार्थनां कुर्वन्तं तं मैनाकं समादृत्य तस्य सम्माननं कृत्वा आदरेण, यद्यपि सः निराकृतवान्, तस्य आतिथ्यं मास्तु, विश्रान्तिः मास्तु, अहम् अत्र स्थातुं नार्हामि इत्येव सः उक्तवान्, वस्तुतः तत्र न स्थितवान् क्षणमपि, किन्तु तदपि आदरेण सूचितवान्। समादृत्य हनुमान् तं किम् उक्तवान्? कार्यगतिः मां त्वरयति, कर्तुं नार्हामि अहं, श्रीरामकार्ये अस्मिन् कालातिपातः न उचितः, किञ्चिदपि अहं कालं समयं व्यर्थं कर्तुं व्यर्थीकर्तुं नार्हामि इति उक्त्वा सः अग्रे प्लुतवान्। यदि भवन्तः सुन्दरकाण्डं पठिष्यन्ति तत्र एतद् वाक्यम् अस्ति, त्वरते कार्यकालो मे अहश्चाप्यति वर्तते, प्रतिज्ञा च मया दत्ता न स्थातव्यम् इहान्तरा। मारुतिः वदति, हनुमान् अहम् अन्यवानरान् प्रतिश्रुतवान् अस्मि, प्रतिज्ञां कृतवान् अस्मि, किम् इति इह अन्तरा कार्यसमाप्तिपर्यन्तम्, एवं चेत् समुद्रलङ्घनपर्यन्तं कुत्रापि अहं न तिष्ठामि इति सः प्रतिश्रुतवान्। तद् स्मारयन् सः वदति, अहं स्थातुं न अर्हामि किन्तु अहं तव आतिथ्येन प्रीतः अस्मि, कोपः मास्तु इति उक्त्वा सः अग्रे गतवान्। अस्माकम् एषः विघ्नः उत्पन्नः हनुमतः, प्रथमविघ्नः, अनन्तरमपि विघ्नः भवति, भवन्तः जानन्ति सुरसा रूपेण द्वितीयः विघ्नः, तृतीयविघ्नः भवति एतद् लङ्किनी। अत्र भवन्तः अपि श्रुतवन्तः स्युः अस्माकं ये गुरवः वदन्ति, विघ्नः सामान्यजनस्य जीवने अपि यथा अत्र त्रिविधः भवति, सात्विकः विघ्नः, राजसः विघ्नः, तामसः विघ्नश्च इति। बहुषु कार्येषु विशिष्य श्रेयांसि बहु विघ्नानि इति वाक्यमस्ति किल, श्रेयस्करं यद् कार्यं भवति तत्र विघ्नाः भवन्त्येव। सात्विकः विघ्नः भवति, तद् कः उत्पादयति? सामान्यतया प्रियः जनः, अभीष्टः जनः एव तद् तादृशं विघ्नम् उत्पादयति। अत्र मैनाकः बन्धुः इव आसीत् किल, आत्मनः बन्धुत्वमपि सः स्मारयति। तादृशमस्मि अपि अस्माकं जीवने अपि सात्विकः विघ्नः परिचितैः जनैः, ये प्रियाः भवन्ति तैः एव भवति, तेषां कारणेन एव। उदाहरणार्थम् आतपे अटित्वा अहं किञ्चित् कार्यं कर्तुम् इच्छामि, किं वदेयुः? आतपे मा गच्छतु, विश्रान्तिं स्वीकरोतु, खादतु इति वदन्ति, किन्तु एव कार्यं सिद्ध्यति इति वयं जानीमः सम्यक्। तथैव सात्विकं विघ्नं, तादृशस्य विघ्नस्य निराकरणं कथं करणीयं, कथं कृतवान्? आदरेण सम्मान्य करणीयं भवति, तत्र कठोरता न दर्शनीया इति वदन्ति किल। यदि माता वदति भवान् कश्चन बालकः इति चिन्तयतु, सः सैनिकः भवितुम् इच्छति, माता वदति न न न भवान् सैनिकः भवति चेत् सुदूरं गच्छति, भवतः प्राणापायः भवति, अहं भवन्तं न त्यजामि। एषः विघ्नः सात्विकः विघ्नः, तर्हि तत्र प्रीत्या एव तस्य सान्त्वनवचनम् उक्त्वा आदरेण एव तेषाम् उत्तरं दातव्यं भवति, यथा हनुमान् अत्र कृतवान्। द्वितीयं राजसविघ्नं, तस्य सम्मुखीकरणं कथं करणीयम् इत्युक्ते, सुरसां यथा चातुर्येण जितवान् तथैव चातुर्येण तत्र जेतव्यं भवति। तृतीयं तामसविघ्नं, तत्र चातुर्यमपि कार्यं न करोति, स्नेहः अपि कार्यं न करोति, तत्र कठोरव्यवहारः एव उचितः, ताः अस्मान् बोधयन्ति, तदहम् अत्र स्मारयितुम् इष्टवती। दशवादनं जातम्, अत्र समापयामः वयम्। अहं वाल्मीकिसुन्दरकाण्डे कान् श्लोकान् पठन्तु इति सूचयामि, प्रायः 120 पर्यन्तं सुरसा वर्णनपूर्वं पूर्वतनश्लोकपर्यन्तं पठामः. कथं मैनाकः दृष्टः, मैनाकः किं किम् उक्तवान्, आञ्जनेयः तस्य उत्तरं किम् उक्त्वा अग्रे गतवान् इति तावत् पर्यन्तं पठामः.
अस्तु
अस्तु, 131 पर्यन्तम् अस्ति तत् श्लोकसङ्ख्या. 131 त्वरते कार्यकालो मे अहश्चाप्यति वर्तते, प्रतिज्ञा च मया दत्ता न स्थातव्यमिहान्तरा. एतान् श्लोकान् अवश्यं पठामः, एकपुटं पठामः चेत् अवश्यं वयं सप्ताहाभ्यन्तरे समापयितुं शक्नुमः. 131 रफ्लि अहं वदामि, तत्र प्रायः 135 पर्यन्तमपि स्यात्. सुरसा वर्णनात् पूर्वतन श्लोकः 168 पश्यन्ति चेत् अवगच्छन्ति. मैनाक एतद् पर्यन्तं पठामि.
भगिनि, you had asked us to read up to 30 kila.
Amamam. Satyam.
I have some small doubts. Can I ask or shall I write to you?
Prichatu chinta mastu.
There are some words for sulfur and all that.
Aha. Astu.
That is 19.
Astu.
जुष्टो धूमराजी इव अनलः शिशा
90 वा
19
ओके.
विच् इस् सल्फर् देर्
किं श्लोकं पठतु.
इट् सेज् इट्स् फ्रम् द राक्स् इन् इस् मिडल् रीजियन् विच् आर् डेपोसिट्स् आफ् सल्फर्. फ्लेम्स् आफ् फायर् शॉट् फोर्थ् अ स्मोक् फ्रम् अ फायर्. सो विच् वर्ड् इस् सल्फर् इन् दट्?
प्रथमसर्गे किल,
प्रथमसर्गे यु हाव् अप् टु 30 श्लोकास् सुन्दरकाण्ड चाप्टर्
सत्यं. पूर्णं श्लोकम् आरम्भतः वदतु.
मुमोचशिलाशैलो विशालं सनश्चिला मध्ये मेनार्चिषा जुष्टो धूमराजीरिवानलः.
अस्तु,
जुष्ट इति अस्ति. मीन्स्
जुष्ट इत्युक्ते युक्त.
मीन्स् युक्त इस् इट्?
अहं चिन्तयामि समनशिलाः.
समनशिलाः
अर्चिषा इत्युक्ते किम्? ज्वाला, ज्वालया जुष्ट. धूमराजीव अनला.
एंड सेम थिंग अगेन दे आर रिपीटिंग इन दैट गौरी संजुष्टा. That is sloka number 27.
Astu.
Gauri kanjana samjushta haritala samavrita vyadi vyadiryantah girestasya shilasta samanashtila. So the samanashtila must be sulfur, no? there the meaning is given as the rocks of the mountain with the red earth mixed with antimony and sulfur. See, they are talking about so many dhatus. That interests me. Antimony, sulfur, all that. You can tell me next class also, no problem.
Namo ma, suchyami. अत्र पाठभेदः अपि अस्ति श्लोकसङ्ख्या अतः भवती श्लोकसङ्ख्यां श्लोकस्य आरम्भपदं सूचयित्वा प्रेषयतु आं दृष्ट्वा
अहं प्रेषयामि
अस्तु शान्तिमन्त्रेण समापयामः सर्वे भवन्तु सुखिनः सर्वे भद्राणि पश्यन्तु
ॐ शान्ति शान्ति शान्तिः धन्यवादः भगिनी